इत्युक्ते गत भानुवासरे तत्र चातुर्मास्य काले श्री श्री श्रीगुरवः अपि एतद्विषये एव सम्यक् तत्र प्रतिपादितवन्तः. एवमेव तत्र अस्माकं तत्र शकुनशास्त्रे पश्यामश्चेत् यदा अस्माभिः तत्र साधना क्रियते तत्र यदि तत्र परिसरेपि तत्र प्रकृत्यामपि यदि वयं पश्यामः तत्र गुरुकृपा वा तत्र गुरुकटाक्षं वा नो चेत् तत्र ये ये तत्र परिप्रश्नेन सेवया ये ये तत्र ज्येष्ठाः सन्ति श्रेष्ठाः सन्ति ते अपि यदि अस्माकं साधनापरेण तत्र विषयान् वदामः वदन्ति तर्हि तत्र अस्माकं तत्र मार्गः सम्यगस्ति इति तत्र दृढीभवति. तावदेव तत्र भगवत्कृपया गुरुकृपया एव अत्र सर्वं तावत् उच्यते. तत्र वयं तावत् तत्र टोटलि रस्टेड् टैप् इति वदन्ति किल तदेव वयं सर्वे. परं तत्र गुरुकृपा यदस्ति तत् समुद्रवत् भवति. तादृशसमुद्रेण तत्र पैप् आगत्य अत्र इदानीं तत्र उच्यते तत् बहिः निस्सरति. तेषां केवलानुग्रहेण सर्वं तावत् विषयं तावत् निस्सरति. अस्माकं तत्र चर्चा अपि डिस्कशन् क्लास् यदस्ति तदपि सम्यक् गच्छति. अत्र पश्यामश्चेत् प्रथमं तावत् कर्ममार्गं गुरुणा अत्रापि गुरुणा तत्र एकं स्माल् करेक्षन् या इम्प्रूवमेण्ट् उक्तमासीत्. तत्र कर्ममार्गम् अनुसरणं कर्ममार्गे तत्र अस्माभिः कार्यं कर्तव्यं. परं कर्ममार्गमित्युक्ते कीदृशकर्ममार्गम् इति तत्र गुरुणा उक्तमासीत्. कर्म इत्युक्ते निष्कामकर्म. अत्रापि तत्र कर्मण्येव अधिकारस्ते मा फलेषु कदाचन मा कर्मफलहेतुर्भूः मा ते सङ्गोस्त्वकर्मणि इति श्लोकमधिकृत्य कर्मणि एव अधिकारः. कर्म इत्युक्ते वाट् इस् द डेफिनेशन् आफ् कर्म. वर्ण आश्रम धर्मरीत्या यदुक्तमस्ति तदेव कर्म. वर्ण इत्युक्ते तत्र वर्ण चातुर्वर्ण्यं मया सृष्टं गुणकर्म विभागशः न तु जातिरीत्या वा किमपि अन्यरीत्या वा तत्र विभागः न वर्तते. गुणकर्म विभागशः तत्र तत्र विभागः कृतमस्ति. तादृशवर्णे यत् वर्णमस्माकं कृते तत्र प्रतिपादितमस्ति जात्या यत् जन्मा यद्वर्णमस्ति तत् स्वीकर्तव्यं. वर्ण आश्रम यस्मिन् आश्रमे भवामः तद् आश्रमरीत्यापि यत् अस्माभिः तत्र विहितमस्ति यत् अस्माकं कृते विहितमस्ति तादृशकर्मणः डीटेल्स् अपि स्वीकर्तव्यम्. एवं वर्णाश्रमरीत्या प्रथमं फस्ट् कर्म फार् द वर्ड् कर्म द अडिशनल् पायिण्ट्स् विच् वि शुड् नोटिस् वन् कर्म शुड् बि आस् पर् द विहित वर्णाश्रम धर्म. पायिण्ट् टु इस् योगः कर्मसु कौशलम्. इट् शुड् बि डन् वित् एक्स्ट्रीम् एक्स्पर्टीस्. वि शुड् आल्वेस् रिमेम्बर् द स्कल्प्चर् हू वास् चेञ्जिङ्ग् द स्माल् विग्रह विच् वास् देर् आन् द टाप् आफ् द राजगोपुरम् जस्ट् बिकास् देर् वास् अ स्क्राच् आन् इट्. तादृशरीत्या एक्सलेन्स् पेशन् भवितव्यम्. एवं योगः कर्मसु कौशलम्. जस्ट् बिकास् द फ्रूट्स् आर् नाट् रिक्वैर्ड् तत्र निरपेक्षतया वा तत्र अतीव अश्रद्धया न कर्तव्यम्. एतदेव तत्र दट् इस् वै द क्याविट्स् हव् आल्सो बीन् गिवन् टुगेदर्. एवं तत्र कर्म कर्तव्यम्. अनन्तरं पश्यामश्चेत् अनपेक्षया निष्कामकर्म एव तत्र चित्तशुद्धिमार्गे प्रवर्तते. दिस् वास् वेरि वेल् टाट् बै आर् इवन् एक्स्प्रेस्ड् एण्ड् स्पोकन् बै श्री 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 गुरवः ड्यूरिङ्ग् द चातुर्मास्य ड्यूरिङ्ग् द प्रीवियस् सण्डे वेन् वी हेड् आल् गान् फर् दर्शनं. इवन् सुधा मामी हेड् कम् डौन् एण्ड् वी मेट्. इट् वास् ग्रेट् मीटिङ्ग् द पीपल्. सो एवं तत्र कर्म equal to nishkama karma as per the varnashrama dharma and in the maximum excellence passion possible tadrishitya kurmas cheta chitta shuddhi bhavati. But that karma again if it is very very dry tatra tat chitta shuddhaye karyam karoti. Param tatra bhagavad bhakti anugraham guru kripa na bhavati cheta tadapi punaha nishphalameva bhavati. So both the watering of bhakti, this bhakti again should be on two, should be, they can be the twin, but again finally it is the same. on Guru and Bhagavat, on both Guru and Bhagavan. When that bhakti is there, that gives the ekagrata which is required, and both of these, when it is done with extreme shraddha and faith, jnana marge tatra pravartanam bhavati. Jnana marga, when we start stepping into the jnana marga, immediately the sadhana chatushtayam comes into picture. Yatra asmabhi drishtamasite nitya nitya vastu viveka. What is viveka? The discrimination ability between good and bad is what is generally told in a transactional level. Viveka at a transactional level, in a day-to-day level, we see that it is what is right, what is wrong, which is one of the most difficult question in this world to be answered at any point of time when we are doing something. What is right, what is wrong? Tadarthameva tatra asmabhi shastradhyenam jeshtanam anuvartanam ityarikam sarvam kartavyam. Again tatra upanishadvakyam svikurmasche yathate tatra varteran tata tatra varte thaha. In case of doubt, how your ancestors, your forefathers have done in these kind of situations, continue doing that way. That is the general answer given to all those kind of doubts. Param tadapi tatrapi nitya nitya vastu vivekata avashyaki. Atra vivekata ityukte, in the sadhana marge vivekata iti pashyamaschete, tatra sat asadoho, tatra sharira shariri, deha dehi, atma anatma, nitya anitya ityadi vastushu tatra vivekaha yadasti brahma satya jagan mithya ityeva tatra yada tatra jnanam bhavati tada eva vivekaha sadhitaha. Apicha dvitiyam tavat vairagyam iha mutra phalabhoga vairagyam. That is total distaste or dispassion for all that is heard, seen, everything. Total renunciation kartavyam. We saw the examples of Bhartrihari, Brahmendra, and other stories. We saw how even Bhartrihari just had a small begging bowl, and for that his guru told him that there is a grihastha, bhogya grihastha. So ask him, that is what he told. So even having a begging bowl in the hand to take alms for his guru sake was also not vairagya. Though he had quit all his rajya and he had come down to do guru seva, tadrsha avasthayam api tad vairagyam na bhavati. So when we know that benchmark, yadyat asmabhi tatra daily frustration madhyat vairagyam agachati, tat kevala nataka vairagyam natu nija vairagyam na bhavati, naija vairagyam na bhavati. Evam. The third one was Shamadi Shatka Sampatti. Shamadi Shatka Sampatti Madhya Asmabhi Drishtamasit. What are the six Sampatti, the treasures, what a sadhaka should try to achieve? Tatra Anyat Tavat Yatayat Treasure Bhavati Tatsarvam Treasure Nabhavati. These are the Shamadi Shatka Sampatti which a sadhaka has to achieve. What are those? Shama, control of mind, which is again also referred to as Shanta, Shanti Dayakaha Shama. Anantaram Dama, control of sense organs. Danta, Danti. Uparati, Uparati is stopping away from all the attachments. Nissangaha Uparati ityapi svikartum shakyate. The Uparata, Uparati yata asti tadapi svikartum shakyate. Titiksha, Titiksha. Titiksha was very well explained again by our guru. Titiksha, Titiksha is sahanam sarva dukkhanam titiksha iti bhavati. Tatra ativa samyak pratipaditam asit. Titiksha iti concept which was there has been Guruji explained it in a very well way. Titiksha sarva dukkhanam, extreme patience, endurance, and unaffected by the dvandvas. Tatra dvandva idasti sukha dukkha nindastuti jaya parajaya labha labha sarvasmin tatra avastha sarvasyam avasthayam tatra sahana sarva dukkhana medasti tadeva titiksha bhavati. Shraddha, the total dedication. Astikyam, tatra astikyam to shraddhavan. Astikyam pratamam tavat asti devaha iti matihe yasya saha guroho upadeshamadhe shraddha shastra vakye shraddha veda vakye shraddha etat sarvam api shraddhi. Anantaram tavat antyat tatra samadhi samadhanah ityapi uktamasti samadhi tatra samadhi avastayam tatra sadhana kartavya evameva tatra shamari shatka sambhi. We have seen all in very detail. A few people have come today and also the people who missed the classes, just doing a quick recap for ourselves. Mumukshutvam anantaram tavat mumukshutvam. Very good example was told again for mumukshutvam. Tatra mumukshutvam, again, like our Acharya said, it is not that while doing everything also if mumukshutvam comes automatically, it is okay for that. Tadrsha mumukshutvam nabhavati. He gave the example when mumukshutvam ityukte, tatra yada ekasya purushasyopari, tatra grihe अग्निः प्रवर्तितः तस्य शिरोपरि तावत् तत्र अग्निः प्रवर्तितः परं यदा तत्र तादृश अवस्थायां सः किं करोति सः प्रथमं तावत् तत्र स्वपरिवारान् वा तत्र तत्रस्थधनं वा किमपि न पश्यति प्रथमं स्व आत्मानं रक्षणं चिन्तयति किल तादृशरीत्या सः तत्र झटिति he jumps into water a person whose head the head is on fire how he immediately jumps into water without thinking of anything around in his house tadrsha ritya yada when that that urge is there to get mumukshutvam that is the starting first step towards mumukshutvam tadrsha urge bhavitavyam iti uktam asit and these sadhana chatushtayam what is the procedure to adopt it we saw that the three arrows which are there will help us shravanam listening to the elders mananam reading and again by taking all these by heart ityukte tatra by the heart sarvam tavat arthavagamanam kartavyam tatra it should be deeply rooted into our heart anantaram tavat nididhyasanam contemplating upon it again and again and sharing with sahapathis and doing charcha and understanding properly and getting that extreme asakti towards it and extreme commitment towards it gives the sadhana margah by doing all this the person becomes eligible for sanyasta sanyasa or the mukti marge sanyasta marge gatum sah eligible bhavati etadeva first step towards that itiva swikartavyam this is not the end of the journey this is the starting how we should be रेडी फॉर जर्नी एवमेव तत्र जनाः केवलं एवमेव भवन्ति तत्र सर्वत्र देवः अस्ति मया सर्वं साधितम् इत्यादिकं या भवन्ति तत्सर्वं मिथ्याप्रलापः मिथ्याचारस्य उच्यते भवति एवमेव अस्मिन् मार्गे गन्तव्यं नित्यकर्म कर्तव्यमेव पूजादिकं कर्तव्यमेव सर्वम् आचरितव्यमेव यदा चित्तशिः ज्ञानमार्गः ज्ञानं लभ्येत तदा तत्र मुमुक्षुत्वमार्गे अर्हः भवामः तदर्थं किं करणीयम् तत्र प्रथमं तावत् तत्रापि गीताध्ययनं कर्तव्यम् गीताध्ययनक्रमे कथम् अस्माभिः गन्तव्यम् प्रथमं तावत् आसक्तिः आगच्छति गीताध्ययनं कर्तव्यम् कर्तव्यम् इति सर्वदा मनसि आसक्तिः भवति परं तत्र प्रयत्नः न कुर्मः परं तत्र यदा आसक्तिः श्रद्धाप्त्या तत्र कमिट्मेण्ट् कृते इण्ट्रेस्ट् फ्रम् इण्ट्रेस्ट् वेन् वि रीच् स्टेज् आफ् कमिट्मेण्ट् वेर् इन् तत्र तत्र अस्माभिः प्रतिदिनं तावत् गीताध्ययनं विना अन्यत् कार्यं किमपि न करोमि तत्र गीताध्ययनं विना तत्र भोजनं न खादामि बहिः न गच्छामि इति तत्र यादृशी कमिट्मेण्ट् भवति तादृशफलं भवति तत्रापि मार्गः प्रथमं तावत् पठनं श्रवणं पारायणं मननम् अनन्तरम् अध्ययनं निधिध्यासनम् अनन्तरम् अभ्यासः जीवने अभ्यासः यदा कुर्मः तदा किं भवति तदा योगी भवितुम् अर्हः भवामः दट् इस् वेन् वि बिकम् एलिजिबल् टु बिकम् अ योगी एवं सर्वम् अस्माभिः कर्तव्यम् तत्र यात्रा तावत् दीर्घा वर्तते परं तस्मिन् मध्ये अस्माभिः तत्र किञ्चिदेव तत्र यात्रादानसङ्कल्पः इदानीमेव कृतमस्ति अस्माभिः तत्र गन्तुम् शक्यते मिलित्वा वयं सर्वे अस्यां यात्रायां गच्छामः गीतायाः महत्त्वम् अस्माभिः तत्र दृष्टमासीत् बट् स्टिल् टु अण्डर्स्टाण्ड् द गीता महत्त्वम् अगेन् अण्ड् अगेन् वि थाट् आफ् इण्ट्रड्यूसिङ्ग् अ श्लोकास् इन् ईच् आफ् द क्लासस् एण्ड् ट्रै टु टेल् अट्लीस्ट् अ फ्यू श्लोकास् टुडे विल् सी द श्लोक मलनिर्मोचनम् पुंसाम् जलस्नानम् दिने दिने सकृद्गीताम्भसि स्नानम् संसारमलनाशनम् मलनिर्मोचनम् पुंसाम् जलस्नानम् दिने दिने सकृत् गीताम्भसि स्नानम् संसार मलनाशनम् सकृतेव तत्र भगवद्गीता किञ्चिदधीता एव पृच्छति सः यमः परमपि अधीता इति पदस्य यदि व्याख्यानम् किञ्चिदपि दीर्घे पश्यामश्चेत् अधीता आल्सो रेफर्स् टु लर्निङ्ग् and implementing a few parts of the Gita, at least one shloka of the Gita, at least adveshta sarvabhutanam ekam param svikurmah tasmin madhye karyam kurmah tadeva alam tada tatra kriyate tasya yamena na charcha bhavati evameva sakrit geetambasi snanam natu prokshanam we may have done prokshanam before. Tatra, they would have just taken a few drops and sprinkled on us. But sakrit gitambasi snanam ityukte kim bhagavad gita kinchid adhita asmabhi kinchid api adhyenam kritva tad mananam kritva nididhyasanam kritva abhyasopi karaniyaha tada tatra kshemaya bhavati punarjanmana vidyate gita adhyenam pumsam punarjanmana vidyate tesham evam api gita yaha mahatva muktamasti अग्रे अपि अस्माभिः दृष्टमासीत् तत्र धर्मक्षेत्रे कुरुक्षेत्रे इति प्रथमश्लोकस्य प्रथमपादे एव गीतायाः सारः वर्तते हौ द इल्लिटरेट् ओल्ड् लेडी हू वाज़् सर्विङ्ग् हर् स्कालर्ली हस्बेण्ड् आन् द बेङ्क्स् आफ् रिवर् गङ्गा गिव्स् द पदव्यत्यास आफ् धर्मक्षेत्रे कुरुक्षेत्रे अण्ड् टेल्स् गीतायाः सारः अत्रैव अस्ति क्षेत्रे क्षेत्रे धर्मं कुरु जस्ट् रीअरेञ्जिङ्ग् द वर्ड्स् वि गेट् द गीतासार क्षेत्रे क्षेत्रे धर्मं कुरु यद्यदपि विहितमस्ति तत् स्वक्षेत्रे तत्र गृहिणी वा भवतु गृहस्थः वा भवतु तत्र न्यायालये वा कार्यं करोतु अन्यत्र कुत्रापि वा कार्यं करोतु यदि तत्र धर्माचरणं कुर्मः तर्हि तदेव गीतायाः सारः भवति क्षेत्रे क्षेत्रे धर्मं कुरु इत्यपि अस्माभिः दृष्टमासीत् वि सा द फोर् अनुबन्ध चतुष्टयम् विषयस्तावत् समस्त वेदार्थ सार संग्रह एंड वेद प्रतिपाद्य प्रवृत्तिधर्मः निवृत्तिधर्मः विसा बोत् वेदे वेदे तत्र प्रवृत्तिधर्मोऽपि वर्तते इत्युक्ते कर्मकाण्डः वर्तते निवृत्तिधर्मश्च वर्तते इत्युक्ते तत्र सन्न्यासमार्गः यदस्ति निवृत्तिधर्मः तदपि प्रतिपादितमस्ति तादृश उभयमार्गस्य सारमपि अत्र अस्माकं गीतायां वर्तते विसा वाट् इस् द विषय सब्जेक्ट् प्रयोजनम् परं निश्चयसमेव प्रयोजनम् दट् इस् द बेस्ट् प्रयोजनम् बट् यु हव् आल्सो सीन् आल् द वर्ल्ड्लि बेनिफिट्स् आल्सो नित्यपारायणेन तत्र मनसि शान्तिः भवति तत्रोग्यं भवति वि आल्सो सा हौ ईच् आफ् द अध्यायास् हाव् अ महत्व माहात्म्य स्टोरी आल्सो पद्मपुराणान्तर्गत स्कान्दपुराणान्तर्गत स्टोरीस् आल्सो वि आर् सीङ्ग् अलाङ्ग् वित् दट् तत्रापि अस्माभिः वि हव् सीन् द वर्ल्ड्लि बेनिफिट्स् विच् पीपल् हव् गाट् बै गीता परं तत्र प्रधान प्रयोजनं तावत् परं निश्रेयसम् परं निश्रेयसं परब्रह्म परवासुदेवस्य अवगमनं यदस्ति तदेव गीतायाः प्रयोजनम् अनन्तरम् ईवन् अ ट्रान्साक्षन् लेवल् डेलि बिहेवियरल् आस्पेक्ट्स् आफ् अस् वेन् वि आर् डीलिङ्ग् वित् पीपल् वेन् वि आर् डूयिङ्ग् अवर् वर्क् यदा तत्र निष्कामकर्म निष्काम्यता इत्यादिकं तत्र रागद्वेषवियुक्तः वीतरागभयक्रोधः इत्यादि तत्र गुणाः भवन्ति तत् सर्वेषां क्षेमायैव भवति तत्र सर्वेषां शान्तये एव भवति किल तर्हि तत्र प्रयोजनं भवत्येव तत्र इतरप्रयोजनम् अवान्तरप्रयोजनम् प्रधानप्रयोजनम् इत्यादिकं बहु प्रयोजनानि भवन्ति अधिकारी यथोक्तप्रयोजनाकाङ्क्षी मुमुक्षुः वेरि क्लियर्लि इवन् आचार्य आल्सो रेफर् टु दिस् इदन्ते ना तपस्काय ना भक्ताय कदाचन न चा शुश्रूषवे वाच्यं न च मां योभ्यसूयति तर्हि तपस्कः भक्तः शुश्रूषुः यः अस्ति तस्मै एव दातव्यम् इत्यपि तेन उक्तमस्ति अन्या तत्र अन्यः अन्या विवेचना न कर्तव्या तत्र शिष्यः तत्र धनवान् अस्ति वा तत्र एतादृशी तत्र विवेचना न कर्तव्या परम् इदं ते ना तपस्काय तपस्कः वा भक्तः वा इत्यपि इत्येव विवेचनां कृत्वा तत्र गीतायाः अध्ययनं कर्तव्यं गीतायाः उपदेशः कर्तव्यम् इत्यपि उक्तमस्ति सम्बन्धः प्रतिपादकः श्रीकृष्णपरब्रह्म प्रतिपाद्यः तत् सर्वे तत्र जीवात्मानः एव प्रतिपाद्यकाः अनन्तरं प्रतिपाद्य विषयस्तावत् तत्र वैदिकधर्मयोः तत्र परब्रह्मणः वैदिकधर्मस्यापि निरन्तरसम्बन्धः वर्तते एव एवं विसाद अनुबन्धचतुष्टय विषयप्रयोजन अधिकारी सम्बन्धः वि हड् सीन् इट् डीटेल् फ्यू पीपल् have come here, so a quick recap, we are just doing it. Tatra kanda trayam vartate, karma kand, upasana kandam, jnana kandam, tatra yetadapi asmabhi prathama kakshasu drishtamasite, how प्रथमे काण्डे कर्म तत्यागवर्त्मना उक्तमस्ति द्वितीये तावत् भगवद्भक्तिनिष्ठावर्णनवर्त्मना उक्तमस्ति तृतीये तु तयोरैक्यं वाक्यार्थो वर्णे स्फुटम् एतदेव तत्र काण्डत्रयमपि अस्माभिः प्रतिपादितमासीत् योग इति शब्दस्य युजिर् योगे इति उपयुक्ते सति तत्र समत्व योग उच्यते युजिर् इति आधारतया स्वीकुर्मश्चेत् व्युत्पत्त्या स्वीकुर्मश्चेत् युजिर् योगे समत्वं योग उच्यते इति तत्र अर्थभावेन आगच्छति युज् समाधौ इफ् यु टेक् द युज् समाधौ व्युत्पत्ति योग रेफर्स् टु चित्त स्टेबिलिटि यत्र उपरते नित्यं निरुद्धं योगसेवया तादृशरीत्या स्वीकुर्मश्चेत् स्टेबिलिटि युज् संयमने अगेन् योग आल्सो रेफर्स् टु कण्ट्रोलिङ्ग् संयम द संयोग द कण्ट्रोलिङ्ग् वाट् यु डु पश्यमे योगम् ऐश्वरम् ಐಶ್ವರ್ಯಂ ಯೋಗಂ ಯದಸ್ತಿ ಇಂಟ್ರೋಲ್ಡ್ ಡಿವೈನ್ ಪವರ್ ಯದಸ್ತಿ ತದಪಿ ದ್ರಷ್ಟುಂ ಶಕ್ಯತೆ. ವಿ ಹವ್ ಸೀನ್ ಆಲ್ ದಿಸ್ ಇನ್ ಡೀಟೇಲ್. ಪ್ರಥಮಾಧ್ಯಾಯಸ್ಯ ಸಮ್ಮರಿ ಚಾರ್ಟ್ ವರ್ತತೆ. ಪ್ರಥಮ ಸೈನ್ಯವರ್ಣನ ಪೀಠಿಕಾ ಭವತಿ, ಅನಂತರ ತತ್ರ ಶಂಖನಿದಾದ ತೇಷಾಂ ಪರಿಣಾಮ, ಅನಂತರ ಅರ್ಜುನಸ್ಯ ಯುದ್ಧೋತ್ಸಾಹ 20-23, ಅನಂತರ ಉಭಯೋ ಸೇನೆಯೋ ಮಧ್ಯೆ ಸ್ಥಾಪನ ಬಂಧು ದರ್ಶನ ಯದಸ್ತಿ 24-27, ಅನಂತರ ಅರ್ಜುನ ವಿಷಾದ ಯದಸ್ತಿ 28-46. ದ ಇಂಪಾರ್ಟೆಂಟ್ ಪಾರ್ಟ್ ಆಫ್ ದ ಸ್ಟಾರ್ಟ್ ದಟ್ ಇಸ್ ದ ಪ್ರಲ್ಯೂಡ್ ವಾಟ್ ಅಸ್ತಿ ತೇವ ಅತ್ರ ಭವತಿ. ತತ್ರ ಪ್ರಥಮಂ ತಾವತ್ ದೈಹಿಕ ಮಾನಸಿಕ ಬಾಧಾ ಭವತಿ, ಅನಂತರಂ ವಿಪರೀತಾನಿ ನಿಮಿತ್ತಾನಿ ಪಶ್ಯತಿ, ಸಹ ಅನಂತರಂ ನಿಶ್ಚಯಂ ಕರೋತಿ ನಕಾಂಕ್ಷೇ ವಿಜಯಂ ಕೃಷ್ಣ, ಬಂಧುಹತ್ಯಾ ನಕಾಂಕ್ಷೇ ಕುಲಧರ್ಮಾಃ ಕುಲಧರ್ಮ ನಾಶಃ ಭವತಿ ಪಾಪಕಾರ್ಯಂ ಭವತಿ ಇತಿ ಸಹ ಉಕ್ತ್ವಾ ಅನಂತರಂ ನಿರ್ಣಯಂ ಕರೋತಿ ಅಹಂ ಯುದ್ಧಂ ನಕರೋಮಿ ಇತಿ ನಿರ್ಣಯಂ ಕೃತ್ವಾ ಸಹ ತತ್ರ ಸ್ವರಥೇ ಉಪವಿಶತಿ ಇತಿ. ತತ್ರ ಪ್ರಥಮಂ ಪ್ರಥಮಾಧ್ಯಾಯ ದೃಷ್ಟಮಾಸೀತ್. ದೇರ್ ಸೆಲ್ಫ್ ವಿ ಸಾ ಅ ಸ್ಮಾಲ್ ಸೈಕಲಾಜಿಕಲ್ ಪಾರ್ಟ್ ಆಫ್ ಆಲ್ಸೋ ಟು ಇಟ್. ತತ್ರ ಜನಾಃ ಯದಾ ತತ್ರ ಕಿಮಪಿ ತತ್ರ ಕಿಂಚಿತ್ ಸಂಶಯಮಗ್ನಾಃ ಗ್ಲಾನಿಮಗ್ನಾಃ ವರ್ತಂತೆ ತತ್ರ, ಅಂಡ್ ವೆನ್ ದೇ ಆರ್ ನಾಟ್ ವೆರಿ ಶ್ಯೂರ್ ಆಫ್ ವಾಟ್ ದೇ ಆರ್ ಟೆಲ್ಲಿಂಗ್ ಅಂಡ್ ವೆನ್ ದೇ ಆರ್ ನಾಟ್ ವೆರಿ ವೆರಿ ಕ್ಲಿಯರ್ ದೇ ಸ್ಟಾರ್ಟ್ ರಿಪೀಟಿಂಗ್ ಥಿಂಗ್ಸ್ ಆರ್ ದೇ ಸ್ಟಾರ್ಟ್ ಗಿವಿಂಗ್ ಮೋರ್ ಅಂಡ್ ಮೋರ್ ರೀಸನ್ಸ್ ಟು ಸಬ್ಸ್ಟಾನ್ಷಿಯೇಟ್ ಟು ವಾಟ್ ದೇ ಆರ್ ಡೂಯಿಂಗ್. ಯದಾ ತತ್ರ ಬಾಲಕಃ ತತ್ರ ಶಾಲಾಂ ಪ್ರತಿ ನಗಚ್ಛತಿ ಏವಮೇವ ಸಹ ವದತಿ ಕಿಂಚಿತ್ ಉದರವೇದನಾ ವರ್ತತೆ, ಲಿಟಲ್ ಬಿಟ್ ಆಫ್ ಸ್ಟಮಕ್ ಪೈನ್. ಓಕೆ, ಇಸ್ ಇಟ್ ಸ್ಟಮಕ್ ಪೈನ್? ನೋ, ಲಿಟಲ್ ಬಿಟ್ ಆಫ್ ಹೆಡ್ ಏಕ್ ಇಸ್ ಆಲ್ಸೋ ದೇರ್. ಹೆಡ್ ಏಕ್ ಯಾ, ಬಟ್ ದೆನ್ ದರ್ ಇಸ್ ಲಿಟಲ್ ಬಿಟ್ ಆಫ್ ಪೈನ್ ಇನ್ ಮೈ ರೈಟ್ ಹ್ಯಾಂಡ್, ಐ ಆಮ್ ನಾಟ್ ಏಬಲ್ ಟು ರೈಟ್ ಆಲ್ಸೋ, ಅಂಡ್ ಫೈನಲಿ ಲಿಟಲ್ ನೋ, ಐ ಹ್ಯಾವ್ ನಾಟ್ ಡನ್ ಮೈ ಹೋಮ್ ವರ್ಕ್ ಆಲ್ಸೋ, ದೇರ್ ಫೋರ್ ಐ ಡೋಂಟ್ ವಾಂಟ್ ಟು ಸ್ಕೂಲ್ ಗೋ ಟು ಸ್ಕೂಲ್. ಏಮೇವ ತತ್ರ ಕೇವಲಂ ತತ್ರ ಏಕ ಕಾರಣ ದದಾತಿ ಬಹು ಕಾರಣ ದದಾತಿ, ತತ್ರ ಗುರುನಾಂ ಹತ್ಯಾ ಭವತಿ ತತ್ರ ಬಂಧು ಹತ್ಯಾ ಭವತಿ ಕುಲಧರ್ಮಾಃ ನಷ್ಟಾಃ ಭವಂತಿ ಧರ್ಮೇ ನಷ್ಟೇ ಕುಲಂ ಕೃಷ್ಣಂ ಅಧರ್ಮಃ ಅಭಿಭವತಿ ಅಧರ್ಮ ಅಭಿಭವಾತ್ ಗಪ್ಷಂತಿ ಕುಲಸ್ತ್ರೀಯಃ ಸ್ತ್ರೀಷು ದುಷ್ಟಾಶ್ವಾರ್ಷ್ಣೀಯ ಜಾಯತೆ ವರ್ಣಸಂಕರಃ ಇತ್ಯಾದಿಕಂ ಸರ್ವಂ. ಈ ಕೀಪ್ಸ್ ಆನ್ ಟ್ರೈಂಗ್ ಟು ಸಬ್ಸ್ಟಾನ್ಷಿಯೇಟ್ ಹಿಮ್ಸೆಲ್ಫ್ ವೆರ್ ಎನ್ ವಿ ಸೈಕಲಾಜಿಕಲಿ ಗೆಟ್ ಟು ನೋ ದಟ್ ಅರ್ಜುನ ಇಸ್ ಇನ್ ಎ ಗ್ರೇಟ್ ಡಿಲ್ಯೂಷನ್ ಆಫ್ ಮೈಂಡ್ ಅಂಡ್ ಈಸ್ ಓನ್ಲಿ ಟ್ರೈಂಗ್ ಟು ಸಬ್ಸ್ಟಾನ್ಷಿಯೇಟ್, ಅಂಡ್ ಇನ್ ದಟ್ ಸಬ್ಸ್ಟಾನ್ಷಿಯೇಷನ್ ಹೀ ಥಿಂಗ್ಸ್ ಆಸ್ ಇಫ್ ಹೀ ಈಸ್ ಟಾಕಿಂಗ್ ಹೀಸ್ ಕೋಟಿಂಗ್ ಫ್ರಮ್ ದ ರೈಟ್ ಶಾಸ್ತ್ರಾಸ್ ಅಂಡ್ ಅದರ್ ಪ್ಲೇಸಸ್ ಅಂಡ್ ಟ್ರೈಸ್ ಟು ಥಿಂಕ್ ಆನ್ ದೋಸ್ ಲೈನ್ಸ್ ಆಲ್ಸೋ. ಏಂ ಸರ್ವಂ ಶ್ರುತ್ವಾ ತತ್ರ ದ್ವಿತೀಯಾಧ್ಯಾಯೇ ತತ್ರ ಕಾರ್ಪಣ್ಯದೋಷಃ ಇತ್ಯಾದಿಕಂ ಸರ್ವಂ ಸಹ ಪೃಚ್ಛತಿ ತದಾ ತತ್ರ ಶ್ರೀಕೃಷ್ಣಃ ತತ್ರ ಅಶೋಚ್ಯಾನ್ ಅನ್ವಶೋಚಸ್ತ್ವಂ ಪ್ರಜ್ಞಾವಾದಾಂಶ್ಚ ಭಾಷಸೆ ಗತಾಸು ನಗತಾಸೂಂಶ್ಚ ನಾನುಶೋಚಂತಿ ಪಂಡಿತಾಃ ಇತ್ಯೇವ ತತ್ರ 211 ಯದಸ್ತಿ ಶ್ಲೋಕ. ತಸ್ಮಿನ್ ಮಧ್ಯೆ ದಟ್ ಇಸ್ ವೇರ್ ಶ್ರೀಕೃಷ್ಣ ಸ್ಟಾರ್ಟ್ಸ್ ಟು ಡೂ ದ ಉಪದೇಶ. ಹಿ ಜಸ್ಟ್ ಸ್ಟಾರ್ಟ್ಸ್ ಬೈ ಸೆಲಿಂಗ್ ದಟ್ ಅಗತಾಸೂನ್ ಅಗತಾಸೂನ್ ಪ್ರತಿ ಪಂಡಿತಾಃ ಪಂಡಿತಾಃ ಪಂಡಿತಾ ಶಬ್ದಶ ವ್ಯುತ್ಪತ್ತಿ ಅಸ್ಮಾಭಿ ದೃಷ್ಟಮಾಸೀತ್. ಪಂಡಾ ಆತ್ಮವಿಷಯ ಬುದ್ಧಿ ಯಸ್ಯ ಸಹ ಪಂಡಿತಃ ತೇ ಪಂಡಿತಾಃ. ಯೇಷಾಂ ಆತ್ಮವಿಷಯ ಬುದ್ಧಿ ಅಸ್ತಿ ತೇ ಇವ ಪಂಡಿತಾಃ, ನತು ಕಾಚನ ಕಾಚನ ತತ್ರ ಲೌಕಿಕ ಡಿಗ್ರೀಂ ಸ್ವೀಕೃತ್ಯ ಯಃ ಕೋಪಿ ಪಂಡಿತಃ ನ ಭವತಿ. ಏಮೇವ ಆತ್ಮವಿಷಯ ಬುದ್ಧಿ ಅಸ್ತಿ ಚೇತ್ ಸಹ ಪಂಡಿತಃ. ತಾದೃಶ ಪಂಡಿತಾಃ ಕಿಂ ಕುರ್ವಂತಿ ಗತಾಸೂನ್ ಅಗತಾಸೂನ್ ಪ್ರತಿ ನ ಶೋಚಯಂತಿ. ದ ಶ್ಲೋಕಾಸ್ ಫರ್ ದ 12-15 ವೆರಿ ಕ್ಲಿಯರ್ಲಿ ಸೇಸ್ ವೈ ಗತಾಸೂನ್ ಪ್ರತಿ ನ ಶೋಚಯಂತಿ ಗತಾಸವ ಸಂತಿ ಚೇತ್ ತೇ ಕೇವಲಂ ಆದಿ ಅವ್ಯಕ್ತಾದೀನಿ ವ್ಯಕ್ತ ಮಧ್ಯಾನಿ ಅವ್ಯಕ್ತ ನಿಧನಾನಿ. ದಟ್ ಇಸ್ ದೇ ಆರ್ ನಾಟ್ ದೇರ್ ಬಿಫೋರ್, ದೇ ಆರ್ ನಾಟ್ ದೇರ್ ಲೇಟರ್ ಆಲ್ಸೋ. ಇಟ್ ಇಸ್ ಲೈಕ್ ದ ಕ್ಯಾರೆಕ್ಟರ್ಸ್ ವಿಚ್ ಇಸ್ ಕಮಿಂಗ್ ಆನ್ ದ ಸ್ಕ್ರೀನ್ ಪೃಷ್ಠತಃ ನಿತ್ಯೇನ ಭವಂತಿ ಏವ. ಅನಂತರ ಥಿಯೇಟರ್ ಮಧ್ಯೆ ಪಶ್ಯಾಮಶ್ಚೇತ್ ತತ್ರ ಆಕ್ಟಿಂಗ್ ನಾಟಕ ಮಧ್ಯೆ ಪಶ್ಯಾಮಶ್ಚೇತ್ ಜನಾಃ ಅಗ್ರೆ ಆಗಚ್ಛಂತಿ ಪೃಷ್ಠತಃ ಗಚ್ಛಂತಿ. ಜಸ್ಟ್ ಬಿಕಾಸ್ ದೇ ಗೋ ಬಿಹೈಂಡ್ ದ ಸ್ಟೇಜ್ ವಿ ಡು ನಾಟ್ ಸ್ಟಾರ್ಟ್ ಕ್ರೈಯಿಂಗ್ ಫಾರ್ ದೆಮ್ ಸೇಯಿಂಗ್ ದಟ್ ಓಹೋ ದೇ ವೆಂಟವೇ ದೇ ವೆಂಟವೇ. ತರ್ಹಿ ತತ್ರ ಯೇ ವಿ ನೋ ಬಿಕಾಸ್ ದ ಕ್ಯಾರೆಕ್ಟರ್ ಬಿಹೈಂಡ್ ಈಸ್ ದೇರ್ ಆಲ್ವೇಸ್ ಅಂಡ್ ದಿಸ್ ವಾಸ್ ಜಸ್ಟ್ ಅನ್ ಅಪಿಯರೆನ್ಸ್. ಏವಂ ಪಶ್ಯಾಮಶ್ಚೇತ್ ತತ್ರ ಯೇ ಅತ್ರ ಸಂತಿ ತತ್ರ ತೇಷಾಂ ಪ್ರತಿ ಅಗತಾಸವ ಯೇ ಸಂತಿ ಅಗತ ಪ್ರಾಣಾಃ ಯೇ ಸಂತಿ ತೇಷಾಂ ಪ್ರತಿ ಅಪಿ ತತ್ರ ಶೋಕಃ ನ ಕರಣೀಯಃ ತತ್ರ ಪ್ರಯೋಜನ ನಾಸ್ತಿ ಬಿಕಾಸ್ ದೇ ಆರ್ ದೇರ್. ಯು ಸೀ ದಟ್ ಪರ್ಸೆಪ್ಷನ್ ವಿಚ್ ಇಸ್ ದೇರ್, ಯು ಕ್ಯಾನ್ ಸಿ ಇಟ್ ಸೇ ದರ್ ಇಸ್ ನೋ ಕಾರಣ ಫಾರ್ ಡೂಯಿಂಗ್ ಶೋಕ. ಅಂಡ್ ವೇ ಗತಾಸವ ಸಂತಿ ತೇಷಾಂ ಪ್ರತಿ ಅಪಿ ತತ್ರ ಕಾರಣ ನಾಸ್ತಿ ಯತಃ ಆತ್ಮ ವಿಚ್ ಇಸ್ ದೇರ್ ಇನ್ ದಮ್ ಈಸ್ ಪರ್ಮನೆಂಟ್ ಆಲ್ವೇಸ್, ಇಟ್ ಇಸ್ ಓನ್ಲಿ ಟೇಕಿಂಗ್ ಅ ಅನದರ್ ಫಾರ್ಮ್. ತತ್ರ ವಾಸಾಂಸಿ ಜೀರ್ಣಾನಿ ವಿಹಾಯ ಅನ್ಯಾನಿ ನವಾನಿ ದೇಹಿ ಗೃಹಾತಿ ಏವಮೇವ ತತ್ರ ಅಸ್ಮಾಭಿಃ ದೃಷ್ಟಮಾಸೀತ್. So all the then reasons have been given why I should not have shoka. Kimartham panditaha nashochayanti. We took the exact words also from Shankara Bhashyam and also saw those. ತದ ಅಸ್ಮಾಭಿಃ ದೃಷ್ಟಮಾಸೀತ್. ಅನಂತರಂ ತಾವತ್ ಸತ್ ಅಸಭೋ ತತ್ರ ಭೇದಃ ಪ್ರದರ್ಶಿತಃ ಅಸ್ತಿ ಆತ್ಮ ಅನಾತ್ಮನೋ ಅನಾತ್ಮಯೋಃ ತತ್ರ क्यारेक्टरिस्टिक्स् फीचर्स् डिफरेन्सस् इत्यादिकं सर्वं सम्यक् प्रतिपादितं. तदर्थमेव साङ्ख्ययोगः इति तत्र अस्य द्वितीयाध्यायस्य नाम. साङ्ख्यमार्गः उपदिष्टमस्ति. अनन्तरं फीचर्स्, शस्त्राणि न चिन्दन्ति, पावकः न दहति, आपः न क्लेदयन्ति, मारुतः न शोषयति, अयं नित्यः सर्वगतः स्थाणुः अचलः सनातनः. एक्साक्ट् अगेन् वी केन् सी दट् आल् दीस् लाट् आफ् उपनिषद् वर्ड्स् हव् बीन् डैरेक्ट्लि लिफ्टेड् एण्ड् गिवन् हियर्. नायं हन्ति न हन्यते, कठोपनिषत् एक्साक्ट् वर्ड्स् अगेन् द सेम् लैन्स् आफ् कठोपनिषत् हव् बीन् टेकन् हियर् एण्ड् गिवन् बिकास् अगेन् वन् यस्य निःश्वसितं वेदाः, तत्र वेदाः तावत् परवासुदेवस्य निःश्वासमार्गेण आगच्छति. वाट् एवर् ही इस् ब्रीदिङ्ग् द सेम् इस् आल्सो कमिङ्ग् औट् एस् वर्ड्स् एण्ड् इट् इस् द सोर्स् इस् आल्वेस् सेम्. सो देर् केन् नेवर् बी अ डिफरेन्स् बिट्वीन् वाट् पीपल् टेल् आर् वाट् अट् डिफरेण्ट् लोकेशन्स् डिफरेण्ट् टैम् ज़ोन्स् डिफरेण्ट् पीपल् इन् डिफरेण्ट् स्टेट् आफ् मैण्ड् नथिङ्ग् शुड् बि अफेक्टेड् वेन् द सोर्स् वाट् फ्रम् वेर् इफ् एव्रिथिङ्ग् अस्माकं सनातनधर्मे पश्यामश्चेत् दट् इस् द बेस्ट् पार्ट् अबौट् अवर् सनातनधर्म वेर् इन् हौ मेनि अवर् आचार्यास् केन् कम्, हौ मेनि अवर् पण्डितास् केन् कम्, हौ मेनि अवर् ग्रेट् पीपल् केन् कम्, दे केन् एस्टाब्लिश् दर् ओन् फिलासफीस्. तत्र शताधिक फिलासफीस् भवन्ति, सर्वं तावत् तैः प्रतिपादयितुं शक्यते, सर्वं तावत् वक्तुं शक्यते. दे केन् स्टार्ट् न्यू मार्गास् एण्ड् न्यू पन्थ, दे केन् स्टार्ट् न्यू कल्ट्स्. But all of these people base it back to the only one single source, which is Veda dharitam, Shastra dharitam eva. Because of this, the Sanatana Dharma's beauty is there, and all of them finally will talk about the same language, and the Parabrahma Sakshatkara Paramnishraya Samyadasti is similar across the all the panthas. Anantaram kimartham shokah nakartavyah visa. Then slowly he changed the direction from Sankhya. He put the foundation of Sankhya Yoga first. Atma anatma yoho tatra bhedah prakalpitah asti. Anantaram he said, my dear Arjuna, tatra kshatriya dharma maveksyapi yadi payam pashyamas chete tatra vikampana arahah nasti. There is no way you should be shaking around even if I see what is your allotted duty. Kshatriyasya dharmyat yuddhat anyah shreyah navidyate. And yadrcha chopapannam ఆవృతం స్వర్గద్వారం ఈదృశం యుద్ధం కేవలం సుఖినః క్షత్రియః లభంతే. ఓన్లీ వెరీ ఫార్చునేట్ పీపుల్ గెట్ టు డూ అ ధర్మ యుద్ధ. టుడే ఆల్సో ఇన్ కార్గిల్ అండ్ ఇన్ అదర్ ప్లేసెస్ ద సోల్జర్స్, ఇఫ్ యూ టాక్ అబౌట్ ద సోల్జర్స్, దే ఆర్ డూయింగ్ గ్రేట్ సర్వీస్ టు అవర్ కంట్రీస్ అండ్ దే ఆర్ ఆల్వేస్ నిస్వార్థతయా తే కార్యం కుర్వంతి, అతీవ అల్ప వేతనయా కార్యం కుర్వంతి. తాదృశాః తత్ర వీర స్వర్గం ప్రాప్తుం ఇచ్చంతి. దట్ ఇస్ దే ఆర్ ఆల్వేస్ ఫాండ్ ఆఫ్ ద ధర్మయుద్ధ బికాస్ దట్ ఇస్ దేర్ అలాటెడ్ డీ, దట్ ఇస్ దేర్ కర్మణ్యేవాధికారస్తే, దేర్ ఫోర్ దే ఆర్ డూయింగ్ దట్. Anantaram rishtamasti, if you don't do it, what is going to happen, my dear Arjuna? Nobody will tell that Arjuna was so kind and he spared all the bad people. Nobody will tell you that, because you are going away from a dharma yuddha, and if you don't fight this yuddha, yatra adharma margah bhavati adharma rajyam bhavati tena janaha ativa badhante tatra jananam tatra kleshah bhavati, then you are only running away. People will say that you were a coward and you only ran away from the tatra kevalam పలాయనం కృతమితి జనాః వదంతి. సంభావితస్య చాకీర్తి మరణాద్ అతిరిచ్యతే ఇతి అపి అస్మభి దృష్టమస్తి. హతో వా స్వర్గం ప్రాప్స్యసి, జిత్వా వా మోక్ష బహిం భోక్ష్యసే. చారికం అస్మాభి దృష్టమాసీత్. అనంతరం దెన్ ఆఫ్టర్ దట్ ద కర్మయోగ హస్ బీన్ ఇంట్రడ్యూస్డ్, హౌ కర్మ మార్గ హస్ టు బి డన్. వ్యవసాయాత్మిక బుద్ధి ఏకేహ కురునందన, అత్ర వ్యవసాయాత్మిక బుద్ధి ఆవశ్యకీ. ఓన్లీ వన్ మార్గ హస్ టు బి టేకన్ అండ్ వన్ ఫోకస్ షుడ్ బి దేర్. తత్ర ఎవ్రీడే న్యూ మార్గాస్, న్యూ కల్ట్స్ ఫాలోయింగ్ ఎవ్రీథింగ్ should not be done, and tarhi chete tatra all the energies will be wasted. We saw all these things, and tatra karma yoga, again what is karma, what is yoga ritya acharanam, we saw all this, the foundation and how, why what ityarikam sarvam samyak pratipaditam asti. After the karmanye vadikaraste, the 8 to 10 shlokas which follow there clearly explain the shloka. It doesn't mean kevalam karmanyevadikarah is generally the most famous and also sometimes the most misinterpreted shloka also. So the further following 8 to 10 shlokas have to be read in tandem with the karma karmanyevadikaraste shloka and should be understood properly. Asmabhi tatra svikartavya sat sarvam anantaram tatra samadhau achala buddhih. Taking this word, next Arjuna asks a question. If Arjuna had not asked the question, the Bhagavad Gita would have stopped at this level itself, and Gita ಗೀತೋಪದೇಶ. ಬಟ್ ದೆನ್ ಅರ್ಜುನ ಆಸ್ ದ ಕ್ವಶನ್, ಸಮಾಧೌ ಅಚಲಾ ಬುದ್ಧಿ, ಹಿ ಟೇಕ್ಸ್ ದಟ್ ಸೇಮ್ ಥಿಂಗ್ ಅಂಡ್ ಕಾಯಿನ್ಸ್ ದ ವರ್ಡ್ ಸಿತಪ್ರಜ್ಞ ಅಂಡ್ ಆಸ್ಕ್ ಸಿತಪ್ರಜ್ಞಸ್ಯ ಭಾಷಾ ಕಾ, ಕೀದೃಶ್ಯ ಸಿತಪ್ರಜ್ಞಸ್ಯ ಸಮಾಧಿಸ್ಥಸ್ಯ ಸ್ಥಿತಪ್ರಜ್ಞಸ್ಯ ಕಾ ಭಾಷಾ, ಅನಂತರಂ ಯಹ ಸ್ಥಿತದೀಹಿ ಕಿಂ ಪ್ರಭಾಷೇತ ಕಿಂ ಆಸೀತ ಕಿಂ ಏತ. 3+1 = 4 ಕ್ವಶನ್ಸ್ ಹಿ ಆಸ್ಕ್ಸ್, ಫಾರ್ ವಿಚ್ ವೆರಿ ವೆರಿ ಬ್ಯೂಟಿಫುಲಿ, ಪ್ರಜಹಾತಿ ಯದಾ ಸರ್ವಾನ್ ಮನೋಗತಾನ್ ಕಾಮಾನ್ ಯಹ ಪ್ರಜಹಾತಿ. ಫಸ್ಟ್ ಸರ್ವಾನ್ ಮನೋಗತಾನ್ ಕಾಮಾನ್ ಪ್ರಜಹಾತಿ, ಆಲ್ ದ ಮನೋಗತಾನ್ ಕಾಮಾನ್, ನತು ಸಂಕಲ್ಪರೀತ್ಯಾ ಆಚರಿತ ಪೂಜಾ ಕರ್ಮಾದಿಕಂ ತೇಷಾಂ ಕಾಮಾನ್ ನೈವ, ನಾಟ್ ದ ಫ್ರೂಟ್ಸ್ ಆಫ್ ವಾಟ್ ವಿ ಡೂ ಅಟ್ ದ ಎಂಡ್ ಕಾಯೇನ ವಾಚ, ತಾದೃಶ ಕಾಮಾನಾಂ ಕಾಮನಾನಾಂ ತತ್ರ ತ್ಯಾಗಃ ನ ಅಲಂ ನ ಭವತಿ ಪರಂ. ಮನೋಗತಾನ್, ಆಲ್ ದೋಸ್ ಕಾಮಾನ್ ವಿಚ್ ಆರ್ ಈವನ್ ಕಮಿಂಗ್ ಫ್ರಮ್ ಸಮ್ವೇರ್ ಅಂಡ್ ಈವನ್ ಟಚಿಂಗ್ ಅವರ್ ಮೈಂಡ್, ಮನೋಗತಾನ್ ಕಾಮಾನ್ ಯದಾ ಯಹ ಪ್ರಜಹಾತಿ, ದಟ್ ಇಸ್ ಎ ಬಿ ಕಂಡೀಷನ್, ಆತ್ಮನ್ಯೇವ ಆತ್ಮನಾ ತುಷ್ಟ, ಯಸ್ಯ ಬ್ರಹ್ಮಣಿ ರಮತೆ ಚಿತ್ತಂ ನಂದತಿ ನಂದತಿ ನಂದತ್ಯೇವ, ಆತ್ಮನ್ಯೇವ ಆತ್ಮನಾ ತುಷ್ಟ ಸಿತಪ್ರಜ್ಞ ಸದಾಚ್ಯತೆ. ಹಿ ಶುಡ್ ಬಿ ಬೈ ದ ಆತ್ಮ ಇನ್ ದ ಆತ್ಮ ಹಿ ಇಸ್ ಸ್ಯಾಟಿಸ್ಫೈಡ್. ಸೊ ನತು ತತ್ರ ಅಂತರ್ಮುಖ ಸಮಾರಾಧ್ಯ ಬಹಿರ್ಮುಖ ಸುದುರ್ಲಭ, ತಾವದಿತ್ಯ ಅಂತರ್ಮುಖ ಸಮಾರಾಧನಂ ಯದಾ ಭವತಿ ಆತ್ಮನ್ಯೇವ ಆತ್ಮನಾ ತುಷ್ಟ ಯದಾ ಭವತಿ ತದಾ ಸಿತಪ್ರಜ್ಞ ತದೋಚ್ಯತೆ. ಅನಂತರಂ ದ ನ್ಯಾಚುರಲ್ ಸ್ಟೇಟ್ ಆಫ್ ಸಿತಪ್ರಜ್ಞ ಈಸ್ ಹಿ ವಿಲ್ ಬಿ ಅನ್ಎಫೆಕ್ಟೆಡ್ ಬೈ ಬೋತ್ ಬಿಕಾಸ್ ಹಿ ಡಸ್ ನಾಟ್ ಹ್ಯಾವ್ ದ ಕಾಂಟೆಂಪ್ಲೇಷನ್ ಆರ್ ಹಿ ಡಸ್ ನಾಟ್ ಹ್ಯಾವ್ ದ ಅಬೌಟ್ ವಾಟ್ ಇಸ್ ಸುಖ ವಾಟ್ ಇಸ್ ದುಃಖ, ಹಿ ಇಸ್ ಟೋಟಲಿ ಅವೇ ಫ್ರಮ್ ದಿಸ್. ಏವಂ ದುಃಖೇಶು ಅನುದ್ವಿಗ್ನಮನಃ ಸುಖೇಶು ವಿಗತ ಸ್ಪೃಹ ವೀತ ರಾಗ ಭಯ ಕ್ರೋಧ ಸಿತದೀಹಿ ಮುನಿ ಉಚ್ಯತೆ. ವಿ ಸಾ ವೇರಿಯಸ್ ಸ್ಟೋರ್ಸ್ ಫಾರ್ ವೇರಿಯಸ್ ಇನ್ಸಿಡೆಂಟ್ಸ್ ಅಂಡ್ ವಿ ಕೈಂಡ್ ಆಫ್ ಅಂಡರ್ಸ್ಟುಡ್ ಆಲ್ ದೀಸ್ ಥಿಂಗ್ಸ್. ಅನಂತರಂ ತಾವತ್ ಯಹ ಸರ್ವತ್ರ ಅನಭಿಸ್ನೇಹ ಶುಭಂ ಪ್ರಾಪ್ಯ ಅಭಿನಂದತಿ ಅಶುಭಂ ಪ್ರಾಪ್ಯ ನ ದ್ವೇಷ್ಟಿ ತಸ್ಯ ಪ್ರಜ್ಞಾ ಪ್ರತಿಷ್ಠಿತಾ ವರ್ತತೆ. ತಾದೃಶಸ್ಯ ಪುರುಷಸ್ಯ ಪ್ರಜ್ಞಾ ಪ್ರತಿಷ್ಠಿತಾ ಭವತಿ ಯದಾ ಸಂಹರತೆ ಚಾಯಂ ಕೂರ್ಮೋಂಗಾನೀವ ಸರ್ವಶಃ. ವಿ ಹ್ಯಾಡ್ ಅ ವೆರಿ ವೆರಿ ಲಾಂಗ್ ಡೀಟೇಲ್ಡ್ ಡಿಸ್ಕಷನ್ ಆನ್ ಕೂರ್ಮೋಂಗಾನೀವ, ವೈ ಕೂರ್ಮೋಂಗಾನೀವ, ಅಗೇನ್ 5 ಸೆನ್ಸ್ ಆರ್ಗನ್ಸ್ ಪ್ಲಸ್ ಮನಸ್, ಸೊ ದ 4 ಲಿಮ್ಸ್ ಪ್ಲಸ್ ಹೆಡ್ ಅಂಡ್ ಟೈಲ್, ದಟ್ ಇಸ್ ವಾಟ್ ಇಟ್ ರೆಪ್ರೆಸೆಂಟ್ಸ್. ದೆನ್ ಯತ್ರ ಯತ್ರ ಅಸ್ಮಾಭಿ ಶಂಕರಾಚಾರ್ಯ ರಾಮಾನುಜಾಚಾರ್ಯ ಮಧ್ವಾಚಾರ್ಯ ಅವರ್ ಗುರು ಭಾಗ ಅನಂತಲಕ್ಷ್ಮಿ ಮಹಾಭಾಗ, ಆಲ್ ದೀಸ್ ಪೀಪಲ್ ಆರ್ ಹ್ಯಾವ್ ಆಲ್ರೆಡಿ ಪ್ರಾಕ್ಟಿಸ್ ದೀಸ್ ಕೂರ್ಮ ಗಾನೀವ ಅಂಡ್ ದೇ ಆರ್ ಅಂಡ್ ಅವರ್ ಜಗದ್ಗುರವ ಯೇ ಸಂತಿ ತೇ ಸರ್ವೇ ಪ್ರತ್ಯಕ್ಷ ಸ್ಥಿತಪ್ರಜ್ಞಾ ಫಾರ್ ಅವರ್ ಎಕ್ಸಾಂಪಲ್. ಅಂಡ್ ಕೂರ್ಮೋಂಗ್ ಗಾನೀವ ದೇ ಆರ್ ಆಲ್ ಇನ್ವಾಲ್ವ್ ಇನ್ ಡೇ ಟು ಡೇ ಆಕ್ಟಿವಿಟೀಸ್, ದೇ ಆರ್ ಡೂಯಿಂಗ್ ಮೋರ್ ಅಂಡ್ ಮೋರ್ ಆಕ್ಟಿವಿಟೀಸ್ ದೆನ್ ವಾಟ್ ವಿ ಆಲ್ ಡೂ. ವಯಂ ಸರ್ವೇ ತತ್ರ ಅಲಸಾಹ ಭವಾಮಃ, ಬಟ್ ದೇ ಕೀಪ್ ಡೂಯಿಂಗ್ ಲಾಟ್ ಆಫ್ ಆಕ್ಟಿವಿಟೀಸ್. ದೇ ಯೂಸ್ ಆಲ್ ದ ಲಿಮ್ಸ್ ಅಂಡ್ ಸೆನ್ಸ್ ಆರ್ಗನ್ಸ್ ಫಾರ್ ದ ಪರೋಪಕಾರಾರ್ಥಂ ಫಾರ್ ದ ಬೆನಿಫಿಟ್ ಆಫ್ ದ ವರ್ಲ್ಡ್ ದೇ ಯೂಸ್ ಇಟ್. ಅಂಡ್ ತತ್ರ ಬ್ರಹ್ಮಸತ್ಯ ಜಗನ್ಮಿಥ್ಯಾ ಶಂಕರಾಚಾರ್ಯ ನ್ಯೂ. ದೆನ್ ವೈ ಡಿಡ್ ಹಿ ಗೋ ಅರೌಂಡ್ ದ ಎಂಟೈರ್ ಕಂಟ್ರಿ 3 times ಬೈ ವಾಕ್ ಅಂಡ್ ಹ್ಯಾಡ್ ಟು ಉಪದೇಶ ಡು ಉಪದೇಶ ಪೀಪಲ್ ಸನಾತನ ಧರ್ಮ ಪ್ರತಿಷ್ಠಾಪನಾರ್ಥಮೇವ. ಏವಂ ಯದಾ ಅವಶ್ಯಕಂ ತೇ ದೇ ಯೂಸ್ ಆಲ್ ದ ಸೆನ್ಸ್ ಆರ್ಗನ್ಸ್, ಪರಂ ಯದಾ ತತ್ರ ಇಂದ್ರಿಯಾಣಿ ಇಂದ್ರಿಯಾರ್ಥೇಭ್ಯ ತತ್ರ ಯದಾ ದೆ ವೆನ್ ದರ್ ಇಸ್ ಅನ್ ಆನ್ಸ್ಲಾಟ್ ಆಫ್ ದ ಸೆನ್ಸ್ ಆರ್ಗನ್ಸ್ ಇಮಿಡಿಯೆಟ್ಲಿ ಝಟಿತಿ ಇನ್ ಅ ಸ್ಪ್ಲಿಟ್ ಸೆಕೆಂಡ್ ದೇ ವಿತ್ಡ್ರಾ ದರ್ ಸೆನ್ಸ್ ಗನ್ಸ್ ಅಂಡ್ ಮೇಕ್ ದ ಟಫ್ ಎಕ್ಸ್ಟೀರಿಯರ್ ವೆರ್ ಇನ್ ವಾಟ್ ಎವರ್ ದ ಸೆನ್ಸ್ ಆರ್ಗನ್ಸ್ ಕಮ್ ಅಂಡ್ ಹಿಟ್ ದಟ್ ಶೆಲ್ ನಥಿಂಗ್ ವಿಲ್ ಹ್ಯಾಪನ್ ಟು ದರ್ ಇನ್ನರ್ ಮೈಂಡ್. ಇಟ್ ಇಸ್ ಟೋಟಲಿ ಅನ್ಶೇಕನ್ ಅನ್ಟಚ್ಡ್ ಅನ್ಬ್ರೇಕಬಲ್ ಅಂಡ್ ಇಟ್ ಇಸ್ ದ ಇನ್ನರ್ ಸೆನ್ಸ್ ಆರ್ಗನ್ಸ್ ಆರ್ ಕ್ಲಿಯರ್ ಪ್ರೊಟೆಕ್ಟೆಡ್. ಏಮೇವ ಕೂರ್ಮುಂಗಾನೀವ ಅಗೇನ್ ಕೂರ್ಮೋಂಗಾನೀವ ಬೋತ್ ಸುಖ ದುಃಖೆ ವಾಟರ್ ಲ್ಯಾಂಡ್ ಇಟ್ ಇಸ್ ಅನ್ ಆಂಫಿಬಿಯನ್ ಕ್ರಿಯೇಚರ್. ಸೊ ವಾಟರ್ ಮಧ್ಯೆ ಲ್ಯಾಂಡ್ ಮಧ್ಯೆ ಸುಖೆ ದುಃಖೆ ಜಯ ಪರಾಜಯ ಲಾಭ ಲಾಭ ಇಟ್ ಇಸ್ ಫ್ರೀ ಟೋಟಲಿ ಫ್ರೀ ಫ್ರಮ್ ಆಲ್ ದ ದ್ವಂದ್ವಾಸ್ ಏಮ ಉಪರತಿ ದ್ರಷ್ಟು ಶಕ್ಯತೆ ಕೂರ್ಮೋಂಗಾನೀವ ಇತಿ ವಾಕ್ಯೆ. ಸೊ ಈವನ್ ವಿ ಸಾ ಲಾಟ್ ಆಫ್ ಎಕ್ಸ್ಪ್ಲನೇಷನ್ಸ್ ಟು ದಿಸ್ ಹೌ ವೈ ದ ವರ್ಡ್ ಕೂರ್ಮೋಂಗಾನೀವ ಸರ್ವಶಃ ಹ್ಯಾಸ್ ಬೀನ್ ಯೂಸ್ಡ್ ಅಂಡ್ ನಾಟ್ ಎನಿ ಅದರ್ ಉಪಮಾನ ಹ್ಯಾಸ್ ಬೀನ್ ಯೂಸ್ಡ್ ಹಿಯರ್. ಇಂದ್ರಿಯಾರ್ಥೇಭ್ಯ ಯಹ ತತ್ರ ಸಂಹರತೆ ತಾದೃಶಸ್ಯ ಪ್ರಜ್ಞಾ ಏವ ಪ್ರತಿಷ್ಠಿತಾ ಭವತಿ. ಅಗೇನ್ ಅಗ್ರೆ ಅಸ್ಮಾಭಿಃ ದೃಷ್ಟಮಸ್ತಿ ವಿಷಯಾ ವಿನಿವರ್ತಂತೆ ನಿರಾಹಾರಸ್ಯ ದೇಹಿನಃ ರಸವರ್ಜ್ಯಂ ರಸೋಪ್ಯಸ್ಯ ಪರಂ ದೃಷ್ಟ್ವಾ ನಿವರ್ತತೆ. ಆಲ್ ಆಫ್ ಅಸ್ ಆಲ್ ಡೂ ವಿ ಆಲ್ ಆಲ್ಸೋ ಡೂ ಏಕಾದಶಿ ವ್ರತ ತಸ್ಮಿನ್ ಮಧ್ಯೆ ದೋ ಫುಡ್ ಆಬ್ಜೆಕ್ಟ್ಸ್ ಆರ್ ಕೆಪ್ಟ್ ವಿ ಫೋರ್ಸಿಬಲಿ ಟ್ರೈ ಟು ಕೀಪ್ ಅವರ್ ಸೆನ್ಸ್ ಆರ್ಗನ್ಸ್ ಅವೇ ಫ್ರಮ್ ಇಟ್ ಅಂಡ್ ಬಟ್ ಸ್ಟಿಲ್ ದ ಥಾಟ್ ಆಫ್ ಫುಡ್ ದ ಟೇಸ್ಟ್ ಆಫ್ ಫುಡ್ ದ ಸ್ಮೆಲ್ ಆಫ್ ಫುಡ್ ಈವನ್ ಇಫ್ ಯು ಆರ್ ಅವೇ ಸಮ್ವೇರ್ ಸಮ್ ಟೈಮ್ಸ್ ಇಟ್ ಹ್ಯಾಪನ್ಸ್ ದಟ್ ವಿ ಕೆನ್ ಈವನ್ ಸ್ಮೆಲ್ ದ ಫುಡ್ ಈವನ್ ಇಟ್ ಇಸ್ ನಾಟ್ ದೇರ್ ಅರೌಂಡ್ ಬಿಕಾಸ್ ತಾದೃಶ ಬುಭುಕ್ಷಾ ಭವತಿ ಅಸ್ಮಾಕಂ ದೇಹೆ ಬಟ್ ದೆನ್ ದಟ್ ಇಸ್ ದ ಸ್ಟಾರ್ಟಿಂಗ್ ಸ್ಟೆಪ್ ಆಫ್ ಎ ಸಾಧಕ. ಸಾಧಕ knows all the worldly matters around and he is forcibly trying to keep himself away from him and he is trying to do the sadhana marga dhyana yoga hatha yoga ityadikam sarvam saha kurvan asti. ಪರಂ. ಸ್ಥಿತಪ್ರಜ್ಞ, ದಿಸ್ ಕ್ಲಿಯರ್ಲಿ ಡಿಫ್ರೆನ್ಷಿಯೇಟ್ ಬಿಟ್ವೀನ್ ದ ಸ್ಥಿತಪ್ರಜ್ಞ ಅಂಡ್ ಅನ್ ಆರ್ಡಿನರಿ ಸಾಧಕ. ಸಾಧಕ ಟೆಂಪ್ರರಿ ಫಾರ್ ಒನ್ ಡೇ ಟೂ ಡೇಸ್ ಹಿ ಡಸ್ ಫಾಸ್ಟಿಂಗ್, ಬಟ್ ದೆನ್ ಆರ್ ಹಿ ಈಸ್ ಜಸ್ಟ್ ಕೀಪಿಂಗ್ ಹಿಸ್ ಹಿಮ್ಸೆಲ್ಫ್ ಅವೇ ಫ್ರಮ್ ದ ಸೆನ್ಸ್ ಆಬ್ಜೆಕ್ಟ್ಸ್. ಪರಂ ತತ್ರ ಯಹ ತತ್ರ ಸ್ಥಿತಪ್ರಜ್ಞ ಭವತಿ, ಸ್ಥಿತಪ್ರಜ್ಞ ಹ್ಯಾಸ್ ಆಲ್ರೆಡಿ ರಿಯಲೈಸ್ಡ್ ದ ಪರಬ್ರಹ್ಮನ್. ರೈಟ್, ಸೊ ವೆನ್ ಯಸ್ ಗಾಟ್ ದ ಅಲ್ಟಿಮೇಟ್, that is we saw that when somebody has had the best of the sweets or best of the padartha and you give him something which is ordinary taste, then he will not be able to enjoy that. Lot of times happens when some people drink some sweetened milk or something and then they have some other sweet, they are not able to appreciate the sweet. Tadrasha ritya they will not know that sweetness at all in the other object. Evam, and also when sometimes when we have heard the best of the songs, some ordinary singing will not be very very appealing to us. We will not even be interested towards these kinds. Evam inherently rasavarjam rasopyasya, for a sitapragna the thought, the feel, the look, the taste, the liking, everything of this is not at all there. Rasavarjam rasopyasya param drishto vartate. So that is what clearly differentiates between a sadhaka and a sitapragna. We also saw examples for this. ಅಗ್ರೆ ಪಶ್ಯಾಮಃ. ಯತತೋಹ್ಯಪಿ ಕೌಂತೇಯ ಪುರುಷಸ್ ವಿಪಶ್ಚಿತಃ ಇಂದ್ರಿಯಾಣಿ ಪ್ರಮಾಥೀನಿ ಹರಂತಿ ಪ್ರಥಮ ಮನಃ. ಪ್ರಾಬ್ಲಮ್ ವಿಂಗ್ 60 ಗಿವ್ಸ್ ಅ ಪ್ರಾಬ್ಲಮ್, 61 ಗಿವ್ಸ್ ಅ ಸೊಲ್ಯೂಷನ್ ಟು ಇಟ್. ಯತತಃ ಅಪಿ ಸಾಧಕ, ಯಹ ಸಾಧಕ ಅಸ್ತಿ, ಯತತಃ ರೆಫರ್ಸ್ ಟು ಅ ಸಾಧಕ. ಸಾಧಕ ಡಸ್ ಟ್ರೈಸ್ ಟು ಡೂ ಸಮ್ ಸಾಧನ. ವಿಪಶ್ಚಿತಃ, ವಿಪಶ್ಚಿತಃ ಅಗೇನ್ ಯಹ ತತ್ರ ವಿಶೇಷೇಣ ದ್ರಷ್ಟುಂ ಶಕ್ಯತೆ, ತತ್ರ ದೂರತಃ ವಿಪ್ರಕೃಷ್ಟತೆಯ ಸಹ ದ್ರಷ್ಟುಂ ಶಕ್ಯತೆ. ಹಿ ಹ್ಯಾಸ್ ಅ ಗ್ರೇಟ್ ವಿಷನ್, ಹಿ ಕ್ಯಾನ್ ಸಿ ಲಾಂಗ್ ಟರ್ಮ್. ತತ್ರ ಫಾರ್ ಸೈಟೆಡ್ ಪುರುಷನೇವ ವಿಪಶ್ಚಿತಃ, ಪರಂ ಅತ್ರ ಸಾಧಕ ಇತಿ ಸ್ವೀಕುರ್ಮಃ. ವಿಪಶ್ಚಿತಃ ಪುರುಷಸ್ಯ ಸಾಧಕಸ್ಯ ಯತತಃ ಅಪಿ ಪ್ರಮಾಥೀನಿ ಇಂದ್ರಿಯಾಣಿ ಪ್ರಸವಂ ಹರಂತಿ. ದ ಫೋರ್ಸಿಬಲಿ ದಿ ಸೆನ್ಸ್ ಆರ್ಗನ್ಸ್ ವಿಚ್ ಆರ್ ದೇರ್ ಫೋರ್ಸಿಬಲಿ ಟೇಕ್ ಹಿಮ್ ಅವೇ ಅಂಡ್ ಮನಃ they will forcibly take the manas away to a wrong direction. Tada kim kartavyam, what should we do at that time when we are trying to do sadhana and forcibly our manas is driving it to some other place and all, and the indriyas are getting affected, the indriyas are also trying to drive the manas, and when there is confusion, tada kim kartavyam mat paraha. Single word solution to it, mat paraha. Again and again we have been telling this shloka in every class. The single solution, simplest solution to all these. Again, even Jadabharata in the Bhagavata to Rahuguna asks him lot of questions, but finally asks all these jnana, all these tattva, whatever you are telling Jadabharata, everything is very nice, sometimes easy to understand, but very 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 difficult or even sometimes impossible to implement. What do I do? Very simple answer Jadabharata gives. Mahat pada rajo abhishekat vina tatra sadhana na sadhya. Mahpada rajo abhishekat, mahat janaha santi sajjanaha sadguravaha yeye santi tesham pada rajo abhishekat vina tadrisha vinayam viveka vairagya ityadikam avashyakam. And with that, what we have to do, that for that, what is the first step again? Satsangaha. Satsangatve nissangatvam bhavati. Tatra nissangatvam detachment bhavati. Nissangatve nirmohatvam bhavati. All the delusions are gone. And the nirmohatve nischalatattvam, stability, chitta shuddhi, stability of mind agachati. Nischalatattve eva paramanandaha bhavati. Paramanandaha eva tatra jivan mukti hiti. Eva matparaha is the solution to all the questions what we can ask. Wherein tatra indriyani pramathini haranti prasavam manaha. ಏವಂ ತತ್ರ ಮತ್ಪರಃ ಭೂತ್ವಾ ಯಸ್ಯ ಇಂದ್ರಿಯಾನಿ ವಶೇ ಭವಂತಿ ತಸ್ಯ ಪ್ರಜ್ಞಾ ಪ್ರತಿಷ್ಠಿತಾ ಭವತಿ. ದಟ್ ಇಸ್ ದ ಆನ್ಸರ್. ದೆನ್ ಅನರ್ಥ ಪರಂಪರಾ ಇಸ್ ಎಕ್ಸ್ಪ್ಲೇನ್ಡ್ ಧ್ಯಾಯತಃ ವಿಷಯಾನ್ ಪುಂಸಃ. ಅನರ್ಥ ಪರಂಪರಾ ಸ್ಟಾರ್ಟ್ಸ್ ಫ್ರಮ್ ವಿಷಯ ಧ್ಯಾನ. ಎವ್ರಿ ಡೇ ಅಗೇನ್ ಅಂಡ್ ಅಗೇನ್ ಮಯಾ ತತ್ರ ಚತುಶ್ಚಕ್ರಾರ್ಜನಂ ಕರ್ತವ್ಯಂ, ಧನಾರ್ಜನಂ ಕರ್ತವ್ಯಂ, ವಿತ್ತಾರ್ಜನಂ ಕರ್ತವ್ಯಂ, ಗೃಹಾರ್ಜನಂ ಕರ್ತವ್ಯಂ, ಮಾರ್ಜನಂ ಕರ್ತವ್ಯಂ, ಪೊಸಿಷನ್ ಅರ್ಜನಂ ಕರ್ತವ್ಯಂ ಇತ್ಯಾದಿಕಂ ವಿಷಯಾನ್ ಧ್ಯಾಯತಃ ಕಿಂ ಭವಂತಿ ಸಂಘಃ ಜಾಯತೆ. ಅಟ್ಮೆಂಟ್ ಟುವರ್ಡ್ಸ್ ಆಲ್ ದೀಸ್ ಆಬ್ಜೆಕ್ಟ್ಸ್, ಐ ಹ್ಯಾವ್ ಟು ಗೆಟ್ ದಿಸ್, ಐ ಹ್ಯಾವ್ ಟು ಅಚೀವ್ ದಿಸ್. ತತ್ರ ವಿಷಯಾನ್ ಧ್ಯಾಯತಃ ಪುಂಸಃ ಕಿಂ ಕರೋತಿ, ತತ್ರ ಹೀ ಗೆಟ್ಸ್ ಅಟ್ಯಾಚ್ಮೆಂಟ್ ಟು ದಟ್. ಅಟ್ಯಾಚ್ಮೆಂಟ್ ಜಾಯತೆ ಚೇತ್ ಕಾಮಃ, ಅ ಡೀಪ್ ಪ್ಯಾಷನ್ ಆರ್ ಲಸ್ಟ್ ಟು ಅಟೈನಿಂಗ್ ದಟ್ ಆಗಚ್ಚತಿ. ತತ್ರ ಕಿಂ ಭವತಿ, ಯಾವತ್ ಸಹ ಸರ್ವಂ ಅಚೀವ್ ಕರ್ತುಂ ಶಕ್ನೋತಿ ತಾವತ್ ಸಹ ಆನಂದೇನ ಭವತಿ, ತತ್ರ ಲೌಕಿಕಾನಂದೇನ ಭವತಿ. ಪರಂ ಯಾವತ್ ತತ್ರ ತತ್ ಸರ್ವಂ ಸಾಧಯಿತುಂ ಅಶಕ್ತಃ ಭವತಿ ತದಾ ಕ್ರೋಧೋಭಿ ಜಾಯತೆ. ವೆನ್ ದ ಕಾಮನಾ ಇಸ್ ನಾಟ್ ಫುಲ್ ಕ್ರೋಧಃ ಭವತಿ, ಕ್ರೋಧಾತ್ ಕಿಂ ಭವತಿ ಸಮ್ಮೋಹ, ಡಿಲ್ಯೂಷನ್ ಸ್ಟಾರ್ಟ್ಸ್ ಇನ್ ಹಿಸ್ ಮೈಂಡ್. ವೆನ್ ಹಿ ಇಸ್ ಆಂಗ್ರಿ, ನನ್ ಆಫ್ ದ organs thinking ability, the motor ability of the brain and other logical ability of the brain, sarvam tavat sammohah, they all stop functioning. Smriti vibramah, again smriti vibramah, the memory loss bhavati. Tatra yeshah, aha yeshah asmakam krite kidrisham purvam tatra sah sahayam krtavan. Our parents, they did bring us up all these days. The guru who is there, he taught us all these param. When he tells about tatra sarvam, we forget all those at time when we get anger actually. Smriti vibramah bhavati, all the background we forget. Smriti bramshat buddhi nashah, the brain stops functioning. Buddhi nashat pranashyati, nashah bhavati, buddhi nashat tatra nashah bhavati. Yetreva smabhidhite. For the anti, this was the point we saw, and we also saw that how based on this only the famous quotation, watch your words, words become actions, action becomes deed, deeds becomes your character, character becomes your habit, and habit becomes your character, and character becomes your destiny. So how thoughts can change destiny, asmabhi drishtasit. We saw that the antidote or anti quotation to this. Refinement of an individual is measured by the yardstick of sense control. Perfect, perfect. Samyak, samyak ukamasti. Tatra sense control yavat bhavati, tadrsha tat mapana bhavati, mapana yantra bhavati, yardstvati mapana yantram, tatra indriya nigraha jitendriyatvam yavat bhavati, tavat sadhakasya aunnatyam tatra asmabhi mapanam kartum shakyate. Samyak uktamasti, samyak uktamasti. Samichinam. Tatra yameva tatra asti. Then to give us a little bit of solution to it, he's in 64 and 65 he gives the antidote or anti shloka to 62 and 63. He says ragadvesha vyuktaihi vishayanindriyihi charanne vidheyatma yaha bhavati atmavashyaihi vidheyatma. Vidheyatma ityukte same sitapragnaha vidheyatma, both are same words. Vidheyatma kim karoti ragadvesha vyuktaihi indriyaihi atmavashyaihi indriyaihi kim karoti saha prasadamadigachati. He gets prasada. Prasada is not our the prasada which we get in temples. Prasada here is the paramanandam yadasti, ananda avastha yadasti, paramananda avastha, the unrenable anamayam padam yadasti, tadrsha prasadamadigachati. Prasade kim bhavati, prasade sarva dukkhanam hanihi bhavati, apicha prasanna chitta saha buddhihi paryavatishtate. Buddhihi paryavatishtate, once he is prachitas, again the buddhi is is in stability, and it is permanently established in the Almighty. In asmabhi drishtamasite prasade adhyatmikanam sarvadukkam sarvadukkhanam, again what sarvadukkhanam, sarvadukkhanam adhyatmika adibhauti adidaivika navanava janita tatra bahya antarika adhi vyadhi ityadi sarvadukkhanam anihi bhavati prasadamasti chete. That is what adhyatmikadinam sarvadukkhanam nashah prasanna chetasah swastha antahkaranasya tadrshasya purushah buddhihi paryavatishtate. Buddhihi kim atmaswarupena eva nischali bhavati. Shankara gives in his Shankara bhashya ifar atmaswarupena eva nischali bhavati. Again, where does it go? 65 goes directly back to the first loka. Atmanye vatna tushtah sita prajnyastochyate. So the buddhihi paryavatishtate refers to atmaswarupena eva nischali bhavati. Yevameva tatra samyak pratipaditamasti. We also saw, though we did not have the notes presented here, we saw the we finished all the pada pada parichayam, we saw the English translation, we saw the pada vyutpatti also we saw. Then we went to shloka 66 and 67 also we introduced, but we did not have the notes. After today's class I will also send the notes, apologies for that. I will send the notes from 66 to 72, and a few of us have not got even 60 to 65. I think I'll send it across, and we'll also try to do the presentations also in the we'll try to show the presentations in the coming class. But quickly we'll see 66 67 also, which we saw in the previous class. Nasti buddhira yuktasya na yuktasya bhava ashantasya kutas sukham. Again one more loop cycle with there. Ayuktasya, ayukta ityukte a person who is not able to control the mind. Ayuktah tavat ayuktasya purushasya asamahitantahkaranasya. Samahita antahkarana is yuktah. Ayuktah samahitantahkaranasya purushasya buddhihi. Buddhihi again here, buddhi, again we have seen that word buddhi does not refer to plain brain. It refers to samatva buddhihi, atma swarupa vishaya buddhihi, atma anatma yoho vivechana shaktihi yasyam buddhau vartate tadri buddhihi. So that buddhi word, we have seen the references and the exact connections of it we have seen. Tadrashasya ayuktasya buddhihi nabhavati. What does that mean? Ayuktasya buddhi nabhavati. He does not have one who has controlled his mind, he will not have the reasoning capabilities. Ayuktasya bhavana nacha. Bhavana ityukte. Bhavana, again, what is bhavana? The bhakti or the extreme establishment in the paramatma, paramatmani. Atmajnanabhi nivishaha is the word which is given by Shankara. Atmajnana abhinivishaha. Tadrishi bhavana. Bhavana, again, the thoughts and everything focused on paravasudeve. Paravasudeve parabhavati yadasti tadrisha bhavana nabhavati. Yada tatra bhavana nasti abhavayataha shantihi katam bhavati ashantasya sukham katam bhavati. Again, a chain of the chain has been introduced. We saw vyutpatti of the word also. Again, 67 we introduced. Indriya anam hi charatam yanmanona vidhiyate tarasya harati pragyam vayurnavami vambhasi. Again, indriyanam hi charatam yan manaha anuvidhiyate tadasya pragyam harati vayuhu navam iva ambhasi. Kim bhavati? Ambhasi navam yada vayuhu iva tatra charatam indriyanam yat anuhu mana vidhiyate tat asya pragyam harati. If a man is there in a boat, in a big ocean, samsara sagare, boat madhye vayamapi bhavamaha, we will imagine a man sitting in a boat in a samsara, in the sagara, then what happens if he does not take the row in his hand, or if he does not put the motor or the steering, and if he does not that steering in his hand, atmanam rathinam vidhi, we will see that connotations, sarvam tatra agami kakshayam pashyamaha. If he does not, if the manas does not take the control of the senses and drive it towards the shore, what will happen? The manas and the indriyas which are there, they will, like the vayu, they will forcibly take away the boat to different directions wherever it feels like it wants to take, it will take out, and then finally it will crash with the boat in some rock and destroy the boat itself. That is where people get lost in the samsara sagare, nimagnaha bhavanti, they get broken in the samsara sagara. Param, when the mind takes the full control of the sense organs and mind in the sense how it should go, we have the row in our hand and the motor is also there. Motor will be nothing but bhagavad bhakti hi guru krupa eva motor tatra. Tadrisha guru krupa bhagavad bhakti motor yada bhavati shigram gachati shtam patata paryantam. And the row which is there, the mind controls our senses and we get the focus, and the steering wheel again is the guru krupa, guru marga, marga dhanam, veda, vedanta, shastra, ityadi, jnanam, that will drive us towards that, it will give us the direction of sense of direction, and vayam tatam prati gantu marhaha bhavamaha tadeva asmabhi drishtamasit. But the explanations and the padavyutpatti, this also, indriyanam hi charatam yan manaha anuvidhiyate tarasya harati pragyam vayur navam ivambhasi. Therefore, we should not allow the vayu to take the control of that. We should not allow the sense organs to take control of our manas. Manas should be in control of the sense organs and should drive to the right place. And with Guru Bhakti and the Veda Shastra Jnana, with Bhavad Bhakti, we can always reach the Tata and the Mukti Paryantam. Mukti is the Tata, the shore where we have to reach. Tadeva Asmabhi Uktamasite. Till 67 we saw. We will quickly introduce Shloka number 68 and try to contemplate on the meaning of it and can also understand it in a better way in the coming class. Smadhyasya Mahabaho Nigrihitani Sarvashah Indriyani Indriyarthebhyah Tasya Prajna Pratishthita. Dvivaram Shlokam Vadantu. Tra Padachedam Pashyantu. Kevalam Tatra Kartra Karma Kriyam Tatra Vadantu. Pashyamaha. The details and all we will see in the next class. Ekavaram Chintayatu. Tasmadhyasya Mahabaho Nigrihitani Sarvashah Indriyani Indriyarthebhyah Tasya Prajna Pratishthita. Tatra anvayam katham bhavati. Huh? How do we get the Anvaya? Chintayatu. Vakyam tavat saralam vartate. Tatra pratyaksharitya, it is not similar to other shlokas where we got a direct kartripadam. Again, tasya prajna pratishthita asti. Kasya prajna? Vakyam samyagasti. Tasya prajna pratishthita asti. Kasya prajna pratishthita asti? कस्य प्रज्ञा प्रतिष्ठिता भवति वदतु आई थिंक आई हैव जस्ट अलाउड सुनीलम मैम टू आंसर समय गच्छति यस्य इंद्रियाणि इंद्रियार्थेभ्यः सर्वशः निगृहीतानि सन्ति तस्य प्रज्ञा प्रतिष्ठिता भवति अगेन सिंपल डेफिनेशन गिव तस्मात् महाबाहो हे महाबाहो समीचीनम् यस्य इंद्रियाणि इंद्रियार्थेभ्यः सर्वशः निगृहीतानि सन्ति यस्य इंद्रियाणि इंद्रियार्थेभ्यः निगृहीतानि तस्य प्रज्ञा प्रतिष्ठिता भवति सम्यक् 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 उक्तमस्ति सो दट इज द परफेक्ट तस्य प्रज्ञा प्रतिष्ठिता भवति सम्यक् अस्ति वेरी गुड परफेक्टलि सेड सो अगेन This will again take us back to Kurmonganiva. This will again take us back to the previous shlokas. Again we said in a daily life, Pishta Peshanan Nyayam Nakartavyam, Tatra in transactional affairs we should not keep on repeating and telling advice, free advice to people. Param Vedanta Vishayeshu, Tatra Yada Ponapunyana repeat Bhavati, Tada Yeva Kinchitva Tatra. अन्ते गच्छति यदा तत्र किञ्चित् अन्ते गच्छति चेत् तस्मिन् मध्ये किञ्चित् वा वयं तत्र अर्थावगमनं कुर्मः तत् किञ्चिदि अगेन् वी विल् अट्लीस्ट् थिङ्क् आफ् इम्प्लिमेण्टिङ्ग् सम्थिङ्ग् एण्ड् फैनलि द लिटिल् औट् आफ् दट् लिटिल् औट् दट् लिटिल् वी विल् ट्रै टु इम्प्लिमेण्ट् तदर्थमेव तत्र पौनःपुण्येन रिपिटेशन्स् आर् देर् आर् इस् इन् वेदान्तविषय सो देर् फोर् वी विल् सी How 68 and 69 shlokas have been established. Prajna prati yasya indriyani nigrihitani. Prajna prati yasya indriyani nigrihitani. Tathapi svikartum shakyate iti manye. Param prajna prati ityukte tatra drashtavyamasti. Prajna, kidrishi prajna prati. Laukika prajna prati iti svikritas chete that kind of anvaya can also be done if we take that prajna as laukika prajna param when we take prajna nashuyateva chintayato nashuyateva prayashate tatra when we allow for that prajna prati yasya indriyani we will discuss this anyways in detail in the coming class param the general understanding is yasya indriyani indriyarthebhyah nashuyateva इदानीं श्रूयते वा इति पश्यतु तत्र सम्यक् श्रूयते वा तत् मध्ये किञ्चित् तत्र कनेक्शन् भवति चेत् प्रायशः न शृणोति भवतु तत्र प्रायशः एवं एतावत्पर्यन्तम् अस्माभिः कृतं तत्र अन्ते एव विघ्नमागतम् भवतु पश्यामः यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः तत्र वीरविजयो भूतिर्ध्रुवः।